अस्तु स्मृति अस्माकं स्मृतिविषया चर्चा अनुवर्तते. गतसप्ताहे स्मृतिजननसमये अनुभवः नास्ति इति दृष्टम् अस्माभिः. स्मृतिविषयः अनुभवविषयः एव इत्यपि दृष्टम्. तस्मात् स्मृतिः अनन्तरम् उद्भूता, अनुभवस्य अनन्तरं तस्मिन् समये एव न, तदनन्तरं केनचित् दिनेभ्यः केभ्यचित् दिनेभ्यः अनन्तरं वा अनन्तरदिने वा अनन्तरम् उद्भूता स्मृतिः तद्विषयघटिता एव भवति. इत्युक्ते अनुभवविषयघटिता एव भवति, तस्मिन् समये अनुभवः नास्ति. उदाहरणत्वेन अपि दृष्टम् अस्माभिः, यदा केनचित् पुरुषेण अनुभवधारा अनुभूता, तदा उत्तरोत्तर अनुभवः समये पूर्वतन अनुभवः नष्टः इति दृष्टम्. परन्तु अस्माभिः पूर्वमपि दृष्टं यत् अनुभवविषयविषयिणी स्मृतिः, येन अनुभवः स्मृतिं प्रति कारणम् इति निष्पद्यते. तर्हि समस्या भवति, एकस्मिन् पक्षे तु अनुभवः स्मृतिं प्रति कारणम्, अपरस्मिन् पक्षे तु अनुभवः नास्ति कार्यादिकरणे, इत्युक्ते आत्मनि नास्ति इति दृष्टम्. तर्हि समस्या कथं निवार्यते? व्यापारेण एव इति जानीमः. दण्डस्य उदाहरणं स्वीकृत्य तद्वदेव अत्रापि भवति इति, अनुभवस्य प्रसङ्गे अपि व्यापारस्य कल्पना उपकारिका भवति. अनुभवः यद्यपि समवायेन आत्मनि न तिष्ठति क्षणद्वयानन्तरं, स्वजन्यव्यापारवत्ता सम्बन्धेन आत्मनि स्थित्वा स्मृतिरूपं कार्यं जनयति, सः एव व्यापारः इति. स च व्यापारः भावनाख्यसंस्कारः इति दृष्टम्. इतोपि अपि तु भावना न संस्कारः न दृश्यते. दण्डघट उदाहरणे तु व्यापारः दृश्यते, ब्रह्मिः दृश्यते चक्षुषा, परन्तु अत्र संस्कारः आत्मनि भवति न दृश्यते. इदानीं स्मृतेः लक्षणवाक्यम् इतोपि गभीरतया परिशीलयाम. अस्तु, सर्वत्र मात्रपदेन निवार्यं चिन्त्यम् इति आरभ्य विंशत्यधिक एकशतमं पुटम्. अस्तु, रामप्रिया भगिनी. आम् भगिनि, पेज् 127 रामप्रिया भगिनी आरम्भं करोति वा?
आम् भगिनि. सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्. मात्रपदश्रवणे सति वक्ष्यमाणप्रकारेण संस्कारः एव कारणम् इति न तु तद्भिन्नं किमपि इति प्रतिभाति. यथा चक्षुर्मात्रग्राह्यम् इत्यत्र रूपप्रत्यक्षे चक्षुरेव कारणं न तु तद्भिन्नं किमपि इति भाति. मात्रपदश्रवणेन यदा वयं वदामः संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति, तत्र मातृपद इति श्रवणे अपि यदा वयं तद् पदं तत्पदम् उपयुज्यामः चेत् वक्ष्यमानप्रकारेण संस्कारः एव कारणं न तु तद्भिन्नं किमपि इति प्रतिभाति. मातृपद यदा वयम् उपयुज्यामः चेत् तत्र संस्कारः एव कारणम् इत्युक्ते जनकः स्मृतेः विषये, न तु तद्भिन्नम् अन्य किमपि नास्ति इति वयम् अवगन्तुं शक्नुमः. यथा चक्षुर्मात्रग्राह्यम् इत्यत्र रूपप्रत्यक्षे चक्षुः एव कारणं, न तु तद्भिन्नं किमपि इति भाति. यदा वयं चक्षुर्मात्रग्राह्यो गुणः रूपम् इति वदामः चेत् तस्य रूपस्य लक्षणवाक्ये तत्र चक्षुः मात्र ग्राह्यम् इति चक्षुः एव कारणं रूपप्रत्यक्षविषये, न तु तद्भिन्नम् इति वयम् अवगन्तुं शक्नुमः.
समीचीनम्. इति भाति इति भासते मातृपदस्य उपयोगेन तदेव अस्माभिः अवगम्यते, परन्तु अग्रे पश्येम किम् इति. अस्तु, समीचीनं भगिनि. वक्ष्यमाणः इत्यस्य रूपं किम्?
वक्ष्यमाणः इति लिट् लकारः, श्राणस्य प्रयोगः, वदिष्यामि इति वा.
समीचीनम्. अग्रे अस्ति इति अग्रे समीचीनम्. अखिला भगिनि, कृपया.
तथापि इत्थं सर्वत्र मात्रपदस्थले चिन्त्यम् नहि एकेन कारणेन कार्यं किञ्चित् भवितुम् अर्हति. सर्वविधकार्यं प्रति दिक्कालादीनां षण्णां साधारणकारणत्वस्य कारणत्वविभागे वक्ष्यमाणत्वात्.
अग्रे अग्रे अपि पठतु भगिनि प्रथमं वाक्यम् अग्रिमपरिच्छेदे.
घटादिकार्यव्यक्तिं प्रति चापि कुलालकपालचक्रादीनां अनेकेषां कारणानां लोकसिद्धत्वात्. अस्तु, तर्हि यद्यपि तत्र मात्रपद श्रवणेन तत्र केवलं चक्षुः एव तत्र रूपप्रत्यक्षं प्रति कारणम् इति दृश्यते, तथापि तत्र इतोपि किञ्चित् अधिकं चिन्तनीयं भवति. यथा मातृपद उपयोगम् अत्र भवति, तत्र इतोपि किञ्चित् अधिकम् अस्माभिः चिन्तनीयं.
भगिनी शृणोमि.
क्षम्यतां भगिनि.
तत्र न हि एकेन कारणेन कार्यं किञ्चित् भवितुम् अर्हति इत्युक्ते यदा यत्किमपि कार्यं भवतु तत्र कार्यस्य कृते एकमेव कारणम् इति नास्ति. यथा वयमपि पूर्वं दृष्टवन्तः तत्र असमवायिकारणम् असमवायिकारणं निमित्तकारणानि इति बहूनि कारणानि साधारणतया भवन्ति इति वयं कार्यं प्रति तादृश बहूनि कार्याणि भवन्ति इति वयं पूर्वमपि किञ्चित् दृष्टवन्तः. तर्हि तादृशं तत्र एकेन कारणेन एव कार्यं न भवति, यतोहि तत्र प्रथमम् अत्र दत्तमस्ति सर्वविधकार्यं प्रति दिक्कालादीनां षण्णां साधारणकारणत्वस्य कारणत्वविभागे वक्ष्यमाणत्वात्. इत्युक्ते तत्र साधारणकारणम् इति पूर्वम् अपि वयं किञ्चित् दृष्टवन्तः यत् सर्वेषां कार्याणां प्रति कारणं भवति तत् साधारणकारणम् इत्युक्ते तत्र दिक् कालः प्रागभावः अपि च ईश्वरस्य इच्छा प्रयत्नः कृतिः इति षट् कारणानि सन्ति. यत् यत्किमपि कार्यं भवतु तं प्रति कारणम् इति भवति एतत् षट् कारणानि इति कृत्वा तत्र एकमेव कारणम् अस्ति कार्यं प्रति इति तु नास्ति इति वक्ष्यमाणत्वात् इत्युक्ते यथा रामप्रिया भगिनी उक्तवती तत्र भविष्यत्कालं सूचयति इत्युक्ते तत्र अग्रे यदा कारणविभागः पठेम तस्मिन् एतत् सर्वम् आगमिष्यति इति तत्र सूचना दीयते ग्रन्थकारेण तर्हि तादृशम् अस्ति इति कृत्वा तत्र एकमेव कारणम् इति नास्ति अपि च घटादिकार्यव्यक्तिं प्रति इत्युक्ते घटः इति यदा कार्यं भवति चेत् घटादि इत्युक्ते घटः अपि च इत्यादयः इति घटम् इति तत्र दृष्टान्तरूपेण स्वीकुर्मः चेत् तस्य कार्यस्य प्रति तत्र कुलालः कप्पालः चक्रः दण्डः इति अनेकानि कारणानि वयं पूर्वमपि दृष्टवन्तः इत्युक्ते यदा घटः कथं घटनिर्माणं कथं भवति इति यदा वयं चिन्तितवन्तः पूर्वं तत्र दण्डः भवतु दण्डेन तत्र चक्रे भ्रमः जायते अपि च कपालद्वयम् आवश्यकम् अपि च कुलालः अपि आवश्यकः येन घटनिर्माणं भवति इति सर्वं वयं पूर्वं दृष्टवन्तः ते सर्वे तु कारणानि एव इति कृत्वा तत्र अनेकानि कारणानि भवन्ति इति वयं जानीमः एव
समीचीनम् अत्र प्रथमं तु साधारणं कारणं द्वितीयम् असाधारणं कारणं तनयोः विवरणम् अस्ति प्रथमं वक्ष्यमाणत्वात् पुनः लोकसिद्धत्वात् तयोः अन्वयः अस्ति भगिनि
वक्ष्यमाणत्वात् इति अत्र हेतुपञ्चमी अस्ति तर्हि वक्ष्यमाणत्वात् न हि एकेन कारणेन कार्यं भवितुमर्हति इति
पुनः
तत्रापि तथैव खलु लोकसिद्धत्वात् न हि एकेन कारणेन कार्यं भवितुमर्हति इति
समीचीनं भगिनि अतः प्रथमं मातृपदेन अस्माभिः किम् अवगम्यते इति अस्ति प्रथमे वाक्ये तदनन्तरं मातृपदम् इत्यनेन अन्यानि कारणानि न सूच्यन्ते परन्तु यत्किमपि कार्यं भवतु तत् कार्यं प्रति अनेकानि कारणानि भवेयुः इति तर्कः वर्ध्यते अत्र अस्तु अग्रे सन्ध्या भगिनी
विशेषतश्च आत्मगुणः प्रकृतमृतिर्वा उपाधिप्रत्यक्षं वा अस्तु तस्य समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति पूर्वोक्तः विभागः अनिवार्यः एव आत्मा भवेत् ज्ञानस्य समवायिकारणं स्वस्मिन् तादात्म्येन स्थित्वा खलु सः समवायेन स्मृतिं रूपप्रत्यक्षं वा जनयति आत्ममनस्संयोगः भवेत् असमवायिकारणम्
तावत्पर्यन्तं भगिनि
तर्हि इदानीम् विशेषतः आत्मगुणः प्रकृतस्मृतिः वा रूपादिप्रत्यक्षं वा अस्तु तस्य समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति पूर्वोक्तः विभागः अनिवार्यः एव तर्हि अत्र कारणानां विषये यः भागः पठितः इदानीम् अग्रे अस्ति यत्किमपि भवतु तत्र स्मृतिः इति तत्र आत्मगुणः यः अस्ति स्मृतिः इति वा प्रत्यक्षं रूपादि इति रूपम् इति यत् प्रत्यक्षम् इति सर्वं यद् अस्ति यत्किमपि भवतु तस्य समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति कारणस्य विभागः अस्ति एव तर्हि यदि ज्ञानम् इति वयं विषयं स्वीकुर्मः तर्हि ज्ञानस्य समवायिकारणम् अस्ति आत्मा किमर्थम् इत्युक्ते स्वस्मिन् इत्युक्ते आत्मनि तादात्म्येन स्थित्वा सः इत्युक्ते आत्मा समवायेन वृत्तिं वा रूपप्रत्यक्षं वा जनयति. अतः ज्ञानस्य स्मृतेः इति समवायिकारणम् आत्मा एव अस्ति इति. पुनः तत्र ज्ञानस्य असमवायिकारणमस्ति आत्ममनः संयोगः इति. यतोहि तत्र संयोगः इति गुणः द्वयोः आत्ममनसोः संयोगः तेन तद् असमवायिकारणम् इति अस्ति. अनन्तरं समवायेन आत्मनि स्थित्वा समवायेन स्मृतिं रूपप्रत्यक्षं वा जनयति इति असमवायिकारणस्य तत्र व्याख्या इति. कथम् असमवायिकारणमिति आत्मनसंयोगः इति
समीचीनं भगिनि. अत्र कार्याधिकरणं किम्?
अत्र कार्याधिकरणम् अस्ति आत्मा.
अपि तु कार्यमस्ति
कार्यमस्ति ज्ञानं स्मृतिः. अत्र
स्मृतिः
वादृशं यत् किमपि कार्यम् अस्ति जनयति तद्.
समीचीनम्. आत्ममनसंयोगः असमवायिकारणं भवति यतोहि
आत्ममनसंयोगः इति आत्मनि कार्याधिकरणे समवायेन स्थित्वा समवायेन कार्यं स्मृतिं जनयति इति.
स्मृतिं वा अनुभवं जनयति इति कृत्वा स आत्ममनसंयोगः असमवायिकारणं. समीचीनं भगिनि. अग्रे सुनील् महोदय.
समवाये आत्मनि स्थित्वा समवायेन स्मृतिं रूपप्रत्यक्षं वा जनयति. मनश्च संयोगेन आत्मनि स्थित्वा तदुभयं प्रति जनकमिति न तन्निष्ठकारणद अवच्छेदकसम्बन्धः तादात्म्यं नापि समवायः न वा वक्ष्यमाणः स्वाश्रयसमवेदत्वमिति तत्स्मृतिं प्रति रूपप्रत्यक्षं प्रति च निमित्तकारणं भवति. अत्र पुनः तदेव प्रथमवाक्यं समवायेन आत्मानसंयोगः समवायेन आत्मनि स्थित्वा
अभवत्.
मनः च संयोगेन आत्मनि स्थित्वा तदुभयं प्रति जनकमिति न तन्निष्ठकारणत अवच्छेदकसम्बन्धः तादात्म्यं नापि समवायः न वा वक्ष्यमाणः स्वाश्रयसमवेदत्वमिति तत्कृतिं प्रति रूपप्रत्यक्षं प्रति न च निमित्तकारणं भवति. अत्र मनः संयोगेन आत्मनि स्थित्वा तत् उभयं प्रति जनकमिति न इति अस्ति.
उभयम् इत्युक्ते कस्य सूचनम्?
स्मृतिं प्रति किल
उभयं. स्मृतिं तु एकम्, अन्यत् स्मृतिः एका. ज्ञानं तु द्वैविध्यं,
स्मृतिं च ज्ञानं.
स्मृतिः अनुभवश्च खलु. अत्र तु रूपप्रत्यक्षः, रूपप्रत्यक्षम् तत् उभयं प्रति जनकम् इति अस्ति. कथं?
मनः अत्र अत्र संयोगेन आत्मनि अस्ति इति कारणेन
तदेव किल. स्थित्वा संयोगसम्बन्धेन आत्मनि स्थित्वा
मनः अत्र स्मृतेः च रूपप्रत्यक्षस्य जनकः इति भवति अत्र तन्निष्ठकारणतावच्छेदसम्बन्धः प्राधान्यं नापि समवायः न वा वक्ष्यमाणः स्वाश्रयसमवेदत्वमिति तत्स्मृतिं प्रति रूपप्रत्यक्षं प्रति च निमित्तकारणं भवति
भागशः प्रतिपादयतु महोदय जनकम् अस्तु मनः तु जनकः जनकं तन्निष्ठकारणतावच्छेदकसम्बन्धः इत्युक्ते किं तस्य विभजनं करोतु कृपया
तत् निष्ठकारणतावच्छेदकसम्बन्धः
तन्निष्ठ इत्युक्ते तन् तद्निष्ठ
स्वस्मिन्नेव निष्ठः
अस्तु अत्र अत्र अस्तु कार्यं किम् अस्ति
अत्र स्मृतिः इति कार्यमस्ति
वा रूपप्रत्यक्षं कार्याधिकरणम्
अत्र इदानीं मनः
कार्याधिकरणम् आत्मा इति अस्तु
कारणं मनः
इति चेत् कथं निर्णीयते कीदृशं कारणम् इति कारणकार्याधिकरणयोः सम्बन्धः कः पुनः कार्यकार्याधिकरणयोः सम्बन्धः कः इति परिशीलनीयं खलु अत्र कारणकार्याधिकरणयोः सम्बन्धः कः
अत्र आत्ममनसंयोगः
हा समीचीनं संयोगसम्बन्धः एव खलु न तु तादात्म्यम् इति अस्ति न तन्निष्ठकारणतावच्छेदकसम्बन्धः तादात्म्यम् इत्युक्ते स च सम्बन्धः मन आत्मनयोः सम्बन्धः तादात्म्यं न नास्ति यथा भवता उक्तं संयोगसम्बन्धः एव अतः कारणता अवच्छेदकसम्बन्धः इत्युक्ते मननिष्ठकारणता अवच्छेदकसम्बन्धः कीदृशः इति प्रश्ने कृते तादात्म्यं नास्ति तादात्म्यसम्बन्धः कुत्र अस्ति कस्मिन् अस्ति आत्मा कार्यादिकरणम् आत्मा कारणम् आत्मा तयोः तादात्म्यसम्बन्धः खलु हा अग्रे
नापि समवायसम्बन्धः
किमर्थम्
अत्रापि संयोगसम्बन्धः द्रव्योः मध्ये संयोगसम्बन्धः
परन्तु कस्मिन् समवायसम्बन्धः भवति कयोः समवायसम्बन्धः
गुणद्रव्योः मध्ये भवति
अत्र अस्मिन् उदाहरणे
अस्मिन् उदाहरणे आत्ममनसंयोगः अतः द्रव्योः मध्ये अतः संयोगसम्बन्धः समवायः नास्ति
हा समीचीनम् अग्रे
न वा वक्ष्यमाणः स्वाश्रयसमवेदत्वमिति तत्स्मृतिं प्रति रूपप्रत्यक्षं प्रति च निमित्तकारणं भवति अतः अत्र निमित्तकारणमपि नास्ति इति
परन्तु किमर्थम्
स्वाश्रयसमवेदत्वमिति प्रति अथवा रूपप्रत्यक्षं प्रति निमित्तकारणं भवति इति अत्र स्वाश्रयसमवेदत्वमिति अस्ति इति अत्र तदहं न स्मरामि इदानीं.
न न सरलमेव भोः. स्व आश्रय इत्युक्ते किम्?
तस्मिन्नेव आश्रयः भवति.
आश्रयः इति कदा वदामः? कीदृशसम्बन्धः भवेत् यः आश्रितः भवति अन्यस्मिन् इति वक्तुं कीदृशसम्बन्धः भवेत्? गुणस्य आश्रयः द्रव्यम् इति वदामश्चेत् कीदृशसम्बन्धः तदा?
तत्र समवायसम्बन्धः.
हा, अतः
अत्रापि समवायसम्बन्धः नास्ति इति दृष्टवन्तः. अतः स्वाश्रयसमवेदत्वम् इति तत् स्मृतिं प्रति.
अस्तु, असमवायिक द्वितीयविद असमवायिकानस्य स्मरणमस्ति वा?
द्वितीयविध असमवायिकरणमिति कपालरूपं घटरूपं प्रति
असमवायिकारणम्
इति उदाहरणम्.
कथं कारणत्वं साधयामः तत्र?
अत्र कपालरूपं कपाले अस्ति, घटरूपं घटे अस्ति.
समीचीनम्.
कार्याधिकरणं कपालः इति वदामः चेत्
पुनः महोदय न श्रूयते.
कार्याधिकरणं कपालः इति वदामः चेत्
घटः खलु?
घटः. अतः घटरूपं घटे समवायसम्बन्धेन अस्ति, कपालरूपं कपाले समवायसम्बन्धेन अस्ति. अतः कपालरूपं घटरूपं प्रति कारणं भवति इति.
असमवायिकारणस्य लक्षणं किं? लक्षणवाक्यम् सरला भगिनी.
स्व आश्रयसमवेतत्वसम्बद्ध लक्षणानि कार्याधिकरणे स्थित्वा कार्यं जनयति. कपालरूपं कपाले समवायसम्बन्ध सम्बन्धे अस्ति. कपालसमवायं कथं जनयति? अतः घटः भवति समवेतं. घटः पुनः घटरूपं प्रति समवायसम्बन्धेन घटरूपं जनयति. सो तत् सम्बन्ध समवेतत्वं भवति घटरूपं. सो स्व भवति कपालपरि परिमाणं. तस्य समवायि अस्ति कपाल. स्व आश्रय वा समवायि. स्व कपालरूपम् आश्रय कपाल समवेतं घट समवेतत्वं घटरूपं घटे कार्याधिकरणे अस्ति.
समीचीनं समीचीनम्. अतः अत्र सुनील् महोदय, तादृशसम्बन्धः अपि अत्र नास्ति. किमर्थम् इत्युक्ते
आत्मनयोः मध्ये स्वाश्रयसमवेतत्वसम्बन्धः अपि नास्ति.
हा, मनसः आश्रयः आत्मा नास्ति खलु? यथा कपालरूपस्य आश्रयः आश्रयः कपालः. तादृशी स्थितिः नास्ति अत्र. स्व आश्रयसमवेतत्वम् अपि नास्ति अत्र. कपालरूपघटरूप उदाहरणे कपालरूपघटरूपयोः उदाहरणे स्व आश्रयसमवेतत्वसम्बन्धः अस्ति, येन कपालरूपम् असमवायिकारणं भवति घटरूपं प्रति, खलु? परन्तु तादृशसम्बन्धः अपि नास्ति अत्र, यतोहि मन आत्मनयोः संयोगसम्बन्धः एव अस्ति. यद्यपि अनुभवः रूपप्रत्यक्षं वा स्मृतिः समवायेन आत्मनि अस्ति, मन आत्मनयोः संयोगसम्बन्धः एव अस्ति, न तु समवायसम्बन्धः, खलु? अतः स्व आश्रय इति वक्तुं न शक्नुमः. मनसः आश्रयः आत्मा नास्ति, तयोः संयोगसम्बन्धः एव अस्ति. अतः समवायसम्बन्धः अपि नास्ति, असमवायसम्बन्धः अपि नास्ति, अवशिष्टः सम्बन्धः किं कः अस्ति? इत्युक्ते निमित्तकारणमेव अवशिष्टम् अस्ति. अतः मनः निमित्तकारणं भवति किं प्रति?
स्मृतिं प्रति.
स्मृतिं वा रूपप्रत्यक्षं प्रति निमित्तकारणं भवति. परन्तु एतत् सर्वं किं किमर्थं दत्तम् अस्ति? रूपप्रत्यक्ष प्रत्यक्षस्य त्रीणि कारणानि वा स्मृतेः त्रीणि कारणानि किमर्थम्?
अत्र मात्रपदेन इदानीं पात्रवाक्यमस्ति, अतः कथं तत्र वाक्यस्य निर्वचनं सम्भवति?
वाक्यस्य पुनः विस्तरेण वदतु महोदय.
अत्र मात्रपदस्य उपयोगम् अत्र कुर्मः.
कुत्र? अस्माकं चर्चा कस्य विषये अस्ति?
अस्माकं चर्चा स्मृतेः विषये.
स्मृतेः लक्षणवाक्यस्य वाक्यविषये अस्ति, खलु? हा, तत्र मात्रपदम् अस्ति लक्षणवाक्ये. परन्तु
तत्र मात्रपदेन कथं वयं स्पष्टीकर्तुं शक्नुमः इति अतः तदर्थमेव एवं चिन्ता.
स्मृतेः लक्षणवाक्ये मात्रपदम् अस्ति इत्युक्ते संस्कारमात्रजन्यं ज्ञानम् इति. साधारणतया संस्कारः एव कारणं स्मृतिं प्रति इति भासते, परन्तु प्रतिकार्यं प्रति साधारणकारणम् असाधारणकारणानि सन्ति इति विवृणुमः चेत् रूपप्रत्यक्षं वा स्मृतिं प्रति यानि कारणानि सन्ति इति वयं दृष्टवन्तः. इत्युक्ते तं प्रति समवायिकारणं किम्, असमवायिकारणं किं, निमित्तकारणं किम् इति सर्वाणि कारणानि दृष्टवन्तः. अस्तु, अग्रे
भगिनी.
आम्,
क्षम्यतां, तत्र मनश्च संयोगेन तद् सम्पूर्णवाक्यम् एकवारं भवती स्वयमेव प्रतिपादयतु, किञ्चित् भ्रमः अस्ति.
मनश्च संयोगेन
अन्तिमवाक्यं वदतु.
संयोगेन आत्मनि स्थित्वा तद् उभयं प्रति जनकम् इति न तन्निष्ठकारणता अवच्छेदकसम्बन्धः तादात्म्यं, नापि समवायः, न वा वक्ष्यमाणः स्वाश्रयसमवेतत्वम् इति तत् स्मृतिं प्रति रूपप्रत्यक्षं प्रति च निमित्तकारणं भवति इत्युक्ते मनः संयोगसम्बन्धेन सम्बन्धेन आत्मनि अस्ति. मनः रूपप्रत्यक्षं प्रति अपि तु स्मृतिं प्रति कारणम्, परन्तु कीदृशं कारणं भवति? न तु तादात्म्यसम्बन्धेन आत्मनि अस्ति. कार्याधिकरणं तु आत्मा, न तु तादात्म्येन कार्याधिकरणे अस्ति कारणरूपं मनः. न तु समवायसम्बन्धेन आत्मनि अस्ति कारणरूपं मनः. न तु तादात्म्यं, न तु समवायः. अतः यः अवशिष्टः तत्तु निमित्तकारणमेव. मनः समवायिकारणं न भवति, न तु असमवायिकारणं भवति. अतः मनः निमित्तकारणम् एव इति निष्पद्यते. इदानीं स्पष्टं वा?
तत्र तादात्म्यं नापि समवायः तावत् न वा वक्ष्यमाणः इत्युक्ते किम्?
इत्युक्ते अग्रे स्वाश्रयसमवेतत्वसम्बन्धविषयः वक्ष्यमाणः अस्ति. अग्रे इत्युक्ते कस्मिंश्चित् पुटे स्वाश्रयसमवेतत्वप्रकरणं भवति. तादृशी चर्चा भवति. परन्तु अत्र मन आत्मनयोः सम्बन्धः स्वाश्रयसमवेतत्वसम्बन्धः नास्ति. अन्यत्र कारणविषये गभीरतया चर्चा भवति. तत्र समवायिकारणम्, असमवायिकारणं, निमित्तकारणम् एतत् सर्वं चर्चितम् अस्ति. असमवायिकारणस्य द्वैविध्यं, प्रथमविध असमवायिकारणे कीदृशः सम्बन्धः, द्वितीयविध असमवायिकारणे कीदृशः सम्बन्धः भवति इति एतत् सर्वम् अस्ति. अतः एव वक्ष्यमाणः सम्बन्धः. कीदृशसम्बन्धः? स्व आश्रयसमवेतत्वसम्बन्धः अपि नास्ति अत्र इति कृत्वा मनः निमित्तकारणम्.
चेत् वक्ष्यमाणः सम्बन्धः किम् इत्युक्ते स्व आश्रयसमवेतत्वसम्बन्धः इव.
आम् आम्.
तादृशसम्बन्धः अपि किमर्थं किञ्चित् भ्रमः आगतं चेत् तत्र कमा स्थापितम् अस्ति. वक्ष्यमाणः अपि च स्वाश्रयसमवेतत्वं तयोः मध्ये. हा, न वा वक्ष्यमाणः स्वाश्रयसमवेतत्वम् इति तत्र कमा स्थापयित्वा तत् इत्युक्ते मनः स्मृतिं प्रति रूपप्रत्यक्षं प्रति च निमित्तकारणमेव भवति.
न वा वक्ष्यमाणसम्बन्धः स्वाश्रयसमवेतत्वम् इति. इदानीं स्पष्टं वा?
इदानीं
स्पष्टं. आम्, स्व आश्रयसमवेतत्व अत्र स्वमन आश्रय आत्मा इति समवेतं किं ज्ञान स्मृति वा रूपप्रत्यक्षम्
इत्युक्ते साधारणतया अस्माकम् असमवायिकारणदृष्टान्ते इत्युक्ते कपालरूपं घटरूपम् इति दृष्टान्तः. तत्र स्वम् इत्युक्ते कपालरूपं, स्व आश्रय इत्युक्ते कपालः, समवेतत्वम् इत्युक्ते कपाले समवेतं, यत् समवेतम् अस्ति इत्युक्ते इति आयाति. इत्युक्ते कथञ्चित् एतादृशसम्बन्धेन कपालरूपं घटे अस्ति इति साधयामः खलु. घटम् इति कार्याधिकरणं स्वीकृत्य कथञ्चित् एतादृशेन सम्बन्धेन कपालः घटे अस्ति इति साधयामः, तादृशं कर्तुं शक्नुमः वा अत्र? मनः इति स्वम् इति स्वीकुर्मश्चेत् स्व आश्रय समवेत स्व आश्रयः इति आत्मा इति स्वीकुरु अत्र आत्मा आत्मनि किं समवेतम् अस्ति?
ज्ञानं
अनुभवः
रूपप्रत्यक्ष
हा हा परन्तु तादृश परम्परासम्बन्धः न साधयितुं शक्नुमः खलु अत्र? किमर्थम्?
मन आत्मा तयो मध्ये संयोगसम्बन्धः अस्ति, न तु मनस्य आश्रय आत्मा अस्ति.
अतः निरर्थकं भवति खलु अत्र. इदानीं स्पष्टं वा?
अपि अपि च भगिनी तत्र इति पदेनापि भ्रमः आगच्छति.
इत्युक्ते इति इत्यस्य अन्वयः न तादात्म्यं, नापि समवायः, न वा स्वाश्रय समवेतत्वम् इति.
परम्परा अपि इति
तादात्म्यम् इति
पूर्वमपि इति पदम् इति पदमस्ति किल प्रति तदुभयं प्रति जनकम् इति सन्निष्ठकारणतावच्छेदकसम्बन्धः न तादात्म्यं न एकनिमिषं भगिनि तदुभयं प्रति जनकम् इति सन्निष्ठकारणतावच्छेदकसम्बन्धः न तादात्म्यं नापि समवायः न वा वक्ष्यमाणः स्वाश्रयसमवेतत्वम् इति तत् स्मृतिं प्रति रूपप्रत्यक्षं प्रति च निमित्तकारणं भवति.
एकनिमिषं भगिनि, कथनम् इति मनः जनकः मनः जनकम् इति द्वितीयम् इति न तादात्म्यं न समवायः न वा स्वाश्रय समवेतत्वसम्बन्धः इति.
अस्तु.
हां भगिनि, प्रश्नः अस्ति वा?
संयोगसम्बन्ध अवच्छेदकसम्बन्धः भवति वा न?
भवति खलु
तादात्म्यसमवायसम्बन्ध अवच्छेदकसम्बन्धः भवति, संयोगमपि भवति.
आं भव पूर्वं स्नेहविषये दृष्टवन्तः खलु, स्नेहः कथं निमित्तकारणं भवति इति पिण्डिभावं प्रति. स्मरणमस्ति वा? स्वम् इति स्नेहः, स्वसमवायसंयुक्तत्वसम्बन्धेन स्नेहः पिष्टे अस्ति इति खलु. तत्र तु संयोगसम्बन्धेन जलं पिष्टे अस्ति, तत्रापि परम्परया.
इदानीम् अहं स्मरामि, यदि वयं घटं प्रति सर्वे सम्बन्धाः दृष्टवन्तः तदापि सर्वे सम्बन्ध अवच्छेदकसम्बन्धः भवन्ति.
आम् आम् आम्
आम् अस्तु अस्तु.
कालः
कथं घटं प्रति कपाल
बहवः सम्बन्धाः
प्रत्येकसम्बन्ध अवच्छेदकसम्बन्धः भवति,
कालिक अवच्छेदक
अध्ययतायाः
इत्यादयः.
आमामाम्
इत्युक्ते कारणता इति अस्ति, परन्तु केवलं कारणता इति वदनेन कार्यं न भवति. कारणता इति वदनेन अवगमनं स्पष्टं न भवति, अतः एव अवच्छेदकसम्बन्धः कीदृशः इति वक्तव्यं भवति.
अस्तु
अस्तु.
अपि च अस्मिन् परिच्छेदे एव अस्ति भगिनि, तत्र पूर्वस्मिन् वाक्ये आत्ममनसंयोगः भवेत् असमवायीकारणं, सः खलु समवायेन आत्मनि स्थित्वा समवायेन स्मृतिं रूपप्रत्यक्षं वा जनयति. इति.
आम् आम् अस्तु अस्तु. अग्रे सरला भगिनी, भवत्याः क्रमः खलु?
किम् अनेन आयातं महता प्रबन्धेन संस्कारस्य स्मृतिहेतुत्वे साध्यतेपि संस्कारमात्रजन्यत्वं तस्याः न घटते. रूपप्रत्यक्षस्यापि हि चक्षुमात्रजन्यत्वं न घटते. आत्म आत्मनः संयोग मनोरूपाणां समवायि असमवायि निमित्तकारणानां सर्वत्र अनिवार्यत्वात्.
तावत् पर्यन्तं भगिनि.
अस्तु, अत्र प्रश्न आयाति किमर्थम् एतत् सर्व वक्तव्यमस्ति यदि मातृपदं वयं पूर्वं महत् बहु प्रयत्नेन भावनासंस्कार मात्रेण स्मृतिहेतुः अस्ति. यदा वयं पूर्वं पठितवती अनुभवस्य अनुभवपूर्वं न भवति तस्य व्यापारसंस्काररूपेण स्थापितवन्तः. सो एतत् सर्व कार्यं कथम् आवश्यकता किम् अस्ति यदि संस्कारजन्यतं केवलं नास्ति स्मृतिहेतु संस्कारजन्यत्वम् अस्ति तदापि कथं वयं सर्वे पूर्वे कारणानि पठितवन्तः. रूपप्रत्यक्षस्य अपि चक्षुमात्रजन्यत्वं न घटति. वयम् इदानीं दृष्टवन्तः चक्षुषा केवलं रूपं प्रत्यक्षं रूपस्य ज्ञानं केवलं चक्षुषा न अस्ति, अन्यानि कारणानि अपि अस्ति यथा असमवायिकारण निमित्तकारण इत्यादि. आत्म आत्मनसंयोग मनोरूपाणां समवायि असमवायि निमित्तकारण सर्वत्र अनिवार्यत्वात्. आत्म आत्मनसंयोग मनस् आत्ममनसंयोग इति समवायि असमवायि निमित्तकारण यथा पूर्वे परिच्छेदे वयं दृष्टवन्तः ते अपि आवश्यकं सन्ति स्मृति वा रूप प्रत्यक्षं प्रति. कथं मात्रपदम् इति तस्य आवश्यकता अस्ति
इति वा प्रश्नः. अत्र प्रश्नः कः?
किम् अनेन आयातं
एतावत् पर्यन्तं यत्किमपि कार्यं भवतु तं प्रति बहूनि कारणानि भवेयुः इति दृष्टं पूर्वस्मिन् परिच्छेदे. अतः किं पर्यवसितम्?
किं पर्यवसितं संस्कार स्मृति हेतु प्रति कथं वयं साधितवन्तः पूर्वं संस्कारमात्र
महता प्रबन्धेन इत्युक्ते किं?
महता प्रबन्धेन वयं संस्कार व्यापाररूपत्वेन साधितवन्तः महता प्रबन्धेन. तस्य आवश्यकता किं यदि संस्कारमात्रजन्यत्वं तस्य न घटते? स्मृतिः हेतुः अन्यानि कारणानि समवायि असमवायि एते सर्वे सन्ति कथं मातृजन्यत्वं संस्कार इति सादृश्यं वा पूर्वं दत्तम् अस्ति?
इत्युक्ते अत्र न घटते एव इति अस्ति. पुनः
केवलम् एकं कार्यं नास्ति संस्कारमात्रहेतु भावनासंस्कारमात्रहेतु स्मृति कारणम् अन्यानि अपि अस्ति.
अतः मातृपदेन मातृपदस्य प्रयोगः
तस्य आवश्यकता किम् अस्ति?
न उचितः इति दृश्यते इति न घटते एव. मातृपदं किमर्थं प्रयुज्यते इति पुनः तस्याः इत्युक्ते
पुनः
रूपप्रत्यक्षः
तथैव अपि रूपप्रत्यक्षं प्रति चक्षुमात्रजन्यत्वं न घटति. चक्षुः केवलं रूपस्य ज्ञानप्रतिकारणं न वर्तते, अन्यानि कारणानि अपि अस्ति. अन्यलक आत्ममनसंयोग समवायनिमित्तकारणानि अपि अनिवार्य अस्ति, आवश्यकं सन्ति. केवलं मातृजन्यत्वम् इति नास्ति,
अतः न घटते. अनिवार्यत्वात् इति किमर्थं तस्य अन्वयः कः कुत्र?
अनिवार्यत्वात् भवति तस्य अन्वयः भवति किम्? अनेन आयातम्
किम् अनेन आयातम् इति साधारणप्रश्नः एव खलु, परन्तु अनिवार्यत्वात् इति
तस्मात्
कारणपञ्चमी इत्युक्ते कारणम् इत्यस्मात् किमपि
किमपि लेक मात्रजन्यत्वं न घटते
संस्कारमात्रजन्यत्वं स्मृतेः न घटते, पुनः चक्षुर्मात्रजन्यत्वं रूपप्रत्यक्षस्य न घटते. किमर्थं न घटते इदानीं सर्वाणि कारणानि अनिवार्यम् अनिवार्यत्वात् न घटते? अस्तु, समीचीनं. लक्ष्मी भगिनी पठति वा? आं भगिनि,
घटते इति उच्चं न उक्तं न इदानीं?
आम् आम्.
अत्र अर्थं किम्?
अर्थः न घटते, न कार्यं करोति, न न उचितम् अस्ति इति.
अस्तु अस्तु भगिनि.
न आपतति न इति, तादृशप्रयोगः न भवति इति.
अस्तु भगिनि.
अग्रे लक्ष्मी भगिनि.
कथं तर्हि संस्कारमात्रजन्यं ज्ञानं स्मृतिः चक्षुर्मात्रग्राह्यो गुणरूपं नागेन्द्रियमात्रग्राह्यः गुणः स्पर्शः इत्यादि लक्षणेषु विद्यमानं मातृपदं योजनीयं, तत्तु संस्कारभिन्नं स्मृतिं प्रति न कारणमिति बोधयति. चक्षुर्भिन्नं रूपप्रत्यक्षं प्रति न कारणमिति, स्वकेन्द्रियभिन्नं स्पर्श प्रत्यक्षं प्रति च न कारणमिति बोधयति. अस्तु, अतः प्रश्नः उदेति, यदि मातृपदस्य प्रयोजनं किं? यदि यदि उदाहरणं स्वीकुर्मः चेत् स्मृतिं प्रति संस्कारमात्र जन्यम् इति संस्कारमात्रजन्यमिति ज्ञानं स्मृति सम्प्रति केवलं संस्कारं संस्कारमेव कारणं नास्ति किं अपि च आत्मसंयोगः निमित्तकारणरूपेण तत्र तदपि अस्ति तत्र कथं वा मातृपदं मातृपदस्य जस्टिफिकेशन् इति कथं मातृपदं तत् किमर्थं तत्र उपयुज्य उपयोगम् अभवत् इति प्रश्नः अस्ति. अन्य उदाहरणानि सन्ति चक्षुर्मात्रग्राह्योगुणरूपं पूर्वं दृष्टवन्तः रूपं रूपस्य लक्षणं चक्षुर्मात्रग्राह्यः रूपं चक्षुर्मात्रग्राह्य एव इत्युक्ते चक्षुर्भिन्न अन्यैः इन्द्रियैः न ग्राह्यः रूपं पुनः तादृशमेव त्वकिन्द्रियमात्रग्राह्यः गुणः स्पर्शः स्पर्शः अपि त्वकिन्द्रियेण एव ग्राह्यः न तु अन्यैः इन्द्रियैः द्वारा इति लक्षणेषु विद्यमानं मातृपदं योजनीयं तत्तु संस्कारभिन्नं स्मृति प्रति न कारणमिति बोधयति. मातृपदं किं बोधयति इत्युक्ते यदि संस्कारमात्रधन्यं ज्ञानं स्मृति इति लक्षणवाक्यम् अस्ति तत् बोधयति किम् इत्युक्ते तत् बोधयति संस्कारम् एव स्मृति प्रति कारणमिति अन्य किमपि द्रव्यः वा गुणः वा न तं प्रति कारणमस्ति इति किन्तु पूर्वम् इदानीं तु दृष्टवन्तः मनः अपि निमित्तकारणं तत्र भवति इति आत्मसंयोगत्वात् अतः एतत् प्रश्नम् उदेति चक्षुर्भिन्नं रूपप्रत्यक्षं प्रति न कारणमिति चक्षुर्भिन्नं रूपप्रत्यक्षं प्रति न कारणमिति त्वकिन्द्रियभिन्नं स्पर्शप्रत्यक्षं प्रति च न कारणमिति बोधयति. अस्तु पुनः तदेव अर्थः इत्युक्ते रूपप्रत्यक्षं प्रति चक्षुः एव कारणं चक्षुर्भिन्न किमपि अन्यकारणानि न सन्ति इति मातृपदेन वयं गृह्णीमः. अपि च स्पर्शप्रत्यक्षं प्रति अपि तदेव त्वकिन्द्रियभिन्न किमपि अन्य इन्द्रियैः वा अन्य किमपि कारणं नास्ति तस्य स्पर्शप्रत्यक्षं प्रति इति मात्रेण वयं स्वीकुर्मः किन्तु तथा नास्ति प्रायः तथा न भवेत्.
अत्र आं भगिनि अत्र कारणानि सर्वाणि दृष्टानि कार्यं प्रति अत्र रूपप्रत्यक्षं वा अनुभवं प्रति कारणानि सन्ति इति वयं जानीमः परन्तु किमर्थं प्रत्येकं लक्षणे लक्षणवाक्ये इत्युक्ते स्मृतेः लक्षणवाक्ये अपि तु रूपलक्षणवाक्ये अपि तु स्पर्शलक्षणवाक्ये किमर्थं मात्रपदं योजनीयं तस्य सार्थकता का इति प्रश्ने सति मातृपदं तु किं सूचयति मातृपदम् संस्कारमात्रजन्यं ज्ञानं स्मृतिः इत्यस्मिन् लक्षणवाक्ये मातृपदेन संस्कारभिन्नं यत्किमपि भवतु तत् कारणं नास्ति इति सूचयति. पुनः रूपलक्षणम् इति स्वीकुर्मः चेत् लक्ष्मी भगिनि रूपलक्षणं स्वीकृत्य वदतु भगिनि.
रूपं प्रति चक्षुः एव चक्षुषा एव रूपं ग्राह्यं रूपमिति गुणः चक्षुषा एव ग्राह्यम् अन्य किमपि द्रव्येण वा अन्य किमपि पदार्थेन न ग्राह्यं
चक्षुर्भिन्नं चक्षुर्भिन्नं भिन्नेन चक्षुर्भिन्नेन अग्राह्यः रूपम् इति अस्ति तस्य अर्थः. पुनः त्वगिन्द्रियविषये
पुनः त्वद्भिन्न त्वगिन्द्रियभिन्न अन्य किम् अन्य किमपि यत्किमपि अस्ति तत् तेन स्पर्शः न ग्राह्यः भवति
इति अर्थः. स्पष्टं वा?
आम् आं भगिनि.
अस्तु तर्हि अत्र तु एतावता तु तावती स्पष्टता नास्ति खलु. तद्भिन्नम् इत्युक्ते किम् इति प्रश्नः उदेति. चक्षुर्भिन्नं वा त्वगिन्द्रियभिन्नं वा संस्कारभिन्नं यत्किमपि भवतु तत् कारणं न भवति इति वदनेन स्पष्टता नास्ति. अतः अग्रे ग्रन्थकारस्य आशयः कः इति पश्याम. शिखवन महोदय.
अतः एवं समाधानं वाच्यं. त्वगिन्द्रियमेव चक्षुर्भिन्नं ग्रन्थकर्तुः बुद्धौ वर्तते. चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अलक्ष्ये सङ्ख्यायाम् अस्ति इति भवति अतिव्याप्तिः. अतः तद्वारणाय त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभाव एव लक्षणे निवेश्यः. प्रतिध्वनिः आगच्छति
महोदय. अग्रे पठतु महोदय. सङ्ख्या
भगिनी अग्रे अग्रे. सङ्ख्या च तादृशविषयत्वाभाववती न भवति इति न लक्ष्ये लक्षणे अतिव्याप्तिः.
तावत्पर्यन्तम्
अस्तु. अतः एवं समाधानं वाच्यम्. तत्र पूर्वं पूर्वस्मिन् परिच्छेदे एकः प्रश्नः आसीत् इत्यादिलक्षणेषु विद्यमानं मात्रपदं कथं वा योजनीयम् इति. अस्य समाधानम् अस्य उत्तरम् अस्मिन् परिच्छेदे दत्तमस्ति. एवं वाच्यं कथं वा योजनीयम् इति चेत् एवं वाच्यम् इति. किमर्थं समाधानम् इत्युक्ते तत्र प्रश्नः इदानीमपि अस्ति इति कृत्वा तत्र समाधानं वाच्यम् इति दत्तमस्ति. त्वगिन्द्रियमेव चक्षुर्भिन्नं ग्रन्थकर्तुः बुद्धौ वर्तते. तत्र पूर्वस्मिन् परिच्छेदे संस्कारभिन्नं स्मृतिं प्रति न कारणमिति बोधयति. चक्षुर्भिन्नं रूपप्रत्यक्षं प्रति न कारणमिति. त्वगिन्द्रियभिन्नं स्पर्शप्रत्यक्षं प्रति न कारणमिति. तत्र त्वगिन्द्रियभिन्नम् इत्युक्ते किं? तत्र अनेकानि कारणानि भवितुम् अर्हति. यद्यत् त्वगिन्द्रियं विहाय अन्यत् सर्वं त्वगिन्द्रियं भिन्नं भवितुम् अर्हति. किन्तु लक्षणवाक्ये
अत्र रूपप्रत्यक्षस्य रूपलक्षणस्य विवरणम्
आम्.
अतः चक्षुर्भिन्नं त्वगिन्द्रियम् इति.
चक्षुर्भिन्नं त्वगिन्द्रियम् इति. आम् आमामां. चक्षुः विहाय अन्यत् सर्वं चक्षुर्भिन्नं भवितुम् अर्हति. तस्मिन् त्वगिन्द्रियमपि अन्तर्भूतं भवति. किन्तु अत्र उक्तमस्ति त्वगिन्द्रियम् एव चक्षुर्भिन्नम् इति. ग्रन्थकर्तुः बुद्धौ वर्तते इति ग्रन्थकारः. तत्र ग्रन्थकर्तुः इत्युक्ते मूलग्रन्थस्य कर्ता, तर्कसङ्ग्रहस्य कर्ता. तस्य बुद्धौ केवलं त्वगिन्द्रियमेव वर्तते, चक्षुर्भिन्नम् इत्युक्ते केवलं त्वगिन्द्रियमेव इति अस्य ग्रन्थकारः वदति. किमर्थम् इत्युक्ते चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अलक्ष्ये सङ्ख्यायाम् अस्ति. वयं जानीमः सङ्ख्या इति गुणः द्वि इन्द्रियग्राह्यं, सङ्ख्या तु चक्षुषा गृह्यते अपि च त्वचा गृह्यते इति सङ्ख्या इति गुणः द्वि इन्द्रियग्राह्यम् इति चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वं चक्षुरिन्द्रिय तत्र चक्षुरिन्द्रिय इत्युक्ते चक्षुरिन्द्रियेण जन्यं तादृशप्रत्यक्षविषयत्वं सङ्ख्यायाम् अस्ति अपि च रूपे अपि अस्ति. रूपं तु चक्षुषा गृह्यते अपि च सङ्ख्या अपि तु चक्षुषा गृह्यते इति रूपे अपि च सङ्ख्यायां चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अस्ति. किन्तु अस्माकं लक्ष्यं किम् इत्युक्ते केवलं चक्षुषा यत् गृह्यते तदेव रूपम् इति वक्तव्यम्. तत्र सङ्ख्यायाम् अतिव्याप्तिः न भवेत् इति कृत्वा तत्र त्वगिन्द्रियेण रूपं न गृह्यते इति इत्यपि लक्ष्ये वाच्यम् इति वक्तव्यम् इति कृत्वा अत्र मात्रपदं योजितम् इति अस्ति. तत् अग्रे वदति. अतः तद्वारणाय, तद् इत्युक्ते तत्र अतिव्याप्तिवारणाय त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः. तत्र लक्षणवाक्ये चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वं भवेत् अपि च त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः अपि भवेत् इति कृत्वा इति नास्ति. त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः लक्षणे निवेश्यः, द्वयमपि भवति चेदेव रूपस्य लक्षणम् अतिव्याप्तिं विना सिद्ध्यति इति कृत्वा तदपि योजनीयम्. सङ्ख्या च तादृशविषयत्व अभाववती न भवति इति न लक्षणे अतिव्याप्तिः. यदि त्वगिन्द्रियजन्यप्रत्यक्ष अभावः इति रूपलक्षणे योजयामश्चेत् अतिव्याप्तिः सङ्ख्याविषये अतिव्याप्तिः न भवति इति तत्र तस्मिन् स्थाने इत्युक्ते त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वस्थाने विषयत्व अभावस्थाने मात्रपदं योजितम् अस्ति.
समीचीनं महोदय
इति पर्यवसति. आम्
समीचीनम् अस्तु.
अतः मातृपदेन अन्य किमपि कारणं नास्ति इति न, किन्तु रूपलक्षणे त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः इति मातृपदं सूचयति इत्येव अवगन्तव्यम्.
समीचीनं. स्पष्टं वा
भगिनि? एकनिमिष भगिनि. अत्र मात्रपदम् इति सूचयति चेत् तत्तु किम् अस्ति इति न, किम् अस्ति किं
तस्य अर्थः कः इति प्रश्नः. किमर्थं मातृपदम्? मातृपदेन किं विवक्षितम् इति प्रश्नः.
तत्तु मातृपदं तु वक्ष्यमाणकारेण संस्कार, तत्तु किं मातृपदं, तत् सर्वे मातृपदं, तत्तु त्वगिन्द्रियजन्यप्रत्यक्ष विषयत्वाभाव, तत्तु मातृपदम्.
हा, मातृपदं योजनेन किं 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 भवति यदि लक्षणवाक्ये मातृपदं नास्ति इति चिन्तयतु भगिनि, तर्हि लक्षणवाक्यं किं भवति? चक्षुर्ग्राह्यगुणः रूपम् इति भवति खलु. चक्षुर्ग्राह्यं रूपम् इति भवति खलु. परन्तु अस्माभिः ज्ञातं यत् रूपलक्षणस्य दलत्रयं भवति इति. इत्युक्ते चक्षुषा ग्राह्यं रूपम्, चक्षुषा मात्र ग्राह्यं रूपम्, गुणः तादृशगुणः रूपम् इति खलु. अतः दलत्रयम् आयाति. इदानीं द्वितीयदलस्य विवरणमेव अस्ति अत्र. मातृपदेन किं किं सूचितम् अस्ति? चक्षुर्भिन्न अग्राह्यं रूपम्. चक्षुर्भिन्नम् इत्युक्ते अत्र त्वगिन्द्रियं. ग्रन्थकर्तुः आशयः अस्ति यत् मातृपदेन किं सूचितमस्ति
इति वर्णितम्.
हा हा, इत्युक्ते चक्षुर्भिन्न भिन्न इन्द्रियम् इत्युक्ते
कार्यान्नम् अस्मि तत् समयं सम्यक् न शृण्मः.
इदानीं तु स्पष्टं खलु भगिनि?
इदानीं तु इदानीं गृहे अस्मि भगिनि. अस्तु
अस्तु, अग्रे राजेन्द्रमहोदय.
आं भगिनि, वर्षलक्षणे त्वग् इन्द्रियभिन्नं चक्षुः तज्जन्यप्रत्यक्ष प्रत्यक्षविषयत्व अभावः पूर्वतेव संख्यां संख्यायाम् इति अतिव्याप्ति वारणाय निवेशः. अतः रूपलक्षणे त्वग् इन्द्रियग्राह्यत्वं, स्पर्शलक्षणे च चक्षुरिन्द्रियग्राह्यत्वं प्रवेश्यम् इति फलित अर्थः.
लक्षणे अपि
अस्तु भगिनि. स्पर्शलक्षणे यथा यथा पूर्वं तु चक्षुर मातृग्राह्यत्वं रूपं गुणं रूपं तत् तस्य व्याख्या अभवत्, किं कारणात् ग्रन्थकर्तुः अभिप्रायः आसीत् तथा तत्र यथा चक्षुर्भिन्नं भिन्नं लिखितवान् तत्र तस्य अभिप्रायः आसीत् त्वग् इन्द्रियम् एव अभिप्रायः आसीत् यत् यत् किमपि त्वग् इन्द्रियेण जन्यप्रत्यक्षविश्वेत् अभावः तत्र निवेशः भवतु चक्षु रूपलक्षणे. तथैव अत्र स्पर्शलक्षणे च त्वग् इन्द्रियभिन्नं चक्षुः रूपलक्षणे स्पर्शलक्षणे त्वग् इन्द्रियभिन्नं यथा वदामः तत्तु चक्षुः एव अभिप्रायः अस्ति तज्जन्यप्रत्यक्षविश्वेत् विषयत् अभावः. चक्षुषु तस्य स्पर्श विषय अभावः अस्ति, तज्जन्य चक्षुषा स्पर्शः न भासते, चक्षुषा स्पर्शः न जन्य ज्ञानजन्य चक्षुषा स्पर्शलक्षणं न ज्ञायते तत्र तत् पूर्वद् एव यद्यपि पूर्वत् एव अत्रापि सङ्ख्यां सङ्ख्यां प्रति अतिव्याप्तिनिवारणाय तत्र यदा तोग् इन् स्पर्शलक्षणे तोग् इन्द्रिय भिन्नं स्पर्शलक्षणं तत्र तथा तत् वदामः तत् तत्तु चक्षुतज्जन्यप्रत्यक्ष विषयित अभावः सङ्ख्या सङ्ख्यायां प्रति यत् अतिव्याप्तिः भवति तत् निवारणाय तत् तथा मातृ शब्द मातृशब्दप्रयोज्य प्रयुज्य तस्य निवारणं भवति यथा ग्रन्थकारस्य अभिप्रायः आसीत् स्पर्शलक्षणे त्वग् इन्द्रिय भिन्नं यथा चिन्तयति तत् चक्षुरिन्द्रिय अग्राह्य यः गुणः गणः सः एव तस्य अभिप्रायः आसीत्
चक्षुरिन्द्रिय अग्राह्यः गुणः कः
स्पर्श चक्षुरिन्द्रिय अग्राह्य गुणः स्पर्श इदानीं तु भवती चक्षुरिन्द्रिय त्वगिन्द्रिय अग्राह्य गुणः तु रूपः
पुनः महोदय
रूपः
सङ्ख्या
यथा गुण रूपः त्वगिन्द्रियेण न ग्राह्यते
परन्तु अत्र लक्षणवाक्यं किं स्पर्शस्य लक्षणवाक्यं
त्वगिन्द्रिय मात्र गुणः स्पर्शः
त्वगिन्द्रिय मात्र ग्राह्यगुणः स्पर्शः यदि मात्रपदं नास्ति लक्षणवाक्ये किं भवति
तत्र तु सङ्ख्यां प्रति अतिव्याप्तिदोषः आगच्छति यथा त्वगिन्द्रियेण अथवा अपि च चक्षुषाः सङ्ख्यां ग्राह्यते तत् कारणात् तत् अतिव्याप्ति आगच्छति तत् निवारणाय त्वगिन्द्रियभिन्न भिन्न यथा वदामः अथवा त्वग् इन्द्रियमात्र ग्राह्य गुणः स्पर्शः यथा वदामः तत् चक्षुषा यः सङ्ख्यां प्रति अतिव्याप्तिदोषः आगच्छति तत् निवारणं तस्य निवारणं भवति तत्र
इत्युक्ते चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः निवेशे प्रविशति
तज्जन्यप्रत्यक्षविषयत् अभावः तत्सङ्ख्यां प्रति अतिव्याप्तिदोषस्य निवारणं भवति
समीचीनम् अतः मातृपदम् आयाति
अतः मातृपदं प्रयोजयामः तत्र अतः रूपलक्षणे त्वग् इन्द्रियग्राह्यत्वं स्पर्शलक्षणे च चक्षुरिन्द्रियग्राह्यत्वं प्रवेश्यम् इति फलित अर्थः यथा रूपलक्षणे त्वग् इन्द्रिय अग्राह्यत्वं अपि च स्पर्शलक्षणे चक्षुरिन्द्रिय अग्राह्यत्वं तत् प्रवेशं भवति तत् फलित अर्थः अस्ति तथा अतिव्याप्तिदोषः न आगच्छति
समीचीनं केवलम् अतिव्याप्तिदोष निवारणाय मातृपदम्
उपयुज्यामः इति किं भगिनि
प्रवेश्यम् इत्युक्ते प्रवेशः तस्य प्रवेशः इत्युक्ते तस्मिन् भवति लक्षणवाक्ये अस्ति इति कृत्वा तस्य उपयोगः
उपयोगः प्रवेशति आम्
स्पष्टं खलु अस्तु पुष्पा भगिनी पठति वा
स्मृतिलक्षणे अपि संस्कारभिन्नम् इन्द्रियं विवक्षितम् अभावं निवेश्य वक्ष्यमाणरीत्या प्रत्यभिज्ञायाम् अतिव्याप्तिः निवार्यते इति सर्वं समञ्जसम्
प्रयत्नं करोति वा?
प्रयत्नं करोमि. न तु त्वं पूर्णं करोति न. स्मृतिलक्षणे अपि संस्कारभिन्नम् इन्द्रियं स्मृतिलक्षणे. स्मृति तु मनसि अस्ति, मनसि आत्मनि अस्ति. स्मृतिलक्षणे अपि संस्कारभिन्नम् इन्द्रियं विवक्षितं.
स्मृतिलक्षणं किं भगिनि? स्मृतिलक्षणं किं?
अहं तु न स्मरामि, विस्मरामि. किं भगिनि स्मृतिलक्षणम्?
अस्तु, अन्य किमपि आगतं वा? यस्य नाम
अहं तु got out and got in with a different phone.
अस्तु, अन्य कोऽपि सहायं करोति वा?
स्मृतिलक्षणे संस्कारमात्र जन्य स्मृति तस्य लक्षणम् अस्ति. स्मृतिलक्षणं
इति स्मृतिलक्षणं
संस्कारमात्रजन्यम्. अस्तु भगिनि.
सुनील महोदय प्रयत्नं पुष्पा भगिनी प्रयत्नं करोति वा?
प्रयत्नं करोमि भगिनिभिन्नम् इन्द्रियं विवक्षितं. अत्र स्मृतिलक्षणे अपि संस्कारभिन्नम् इन्द्रियं विवक्षितम्. अत्र स्मृतिलक्षणे संस्कारः भिन्न इन्द्रियं भिन्नम् इति वयं दृश्यं न विवक्षितं तु विवरणं कृतम्.
इत्युक्ते स्मृतिलक्षणे मातृपदम् अस्ति, संस्कारमात्रजन्यं ज्ञानम् इति अस्ति. तत्र मातृपदेन किं विवक्षितं? पूर्वं दृष्टवन्तः रूपलक्षणे अपि तु स्पर्शलक्षणे मातृपदेन भिन्नम् इन्द्रियं विवक्षितम् अस्ति, येन तत् लक्ष्यं न अग्राह्यः भवति इति. अत्र तु स्मृतिलक्षणे अपि तादृशः अर्थः एव, इत्युक्ते संस्कारभिन्नम् इन्द्रियमेव सूचितम् अस्ति. कथम् इति रामप्रिया भगिनी प्रयत्नं करोति वा?
आं भगिनि. तज्जन्यत्वाभावं निवेश्य लक्ष्यमाणरीत्या प्रतिज्ञाय अभिज्ञायाम् अतिव्याप्तिनिवार्यते इति सर्वं समञ्जसं. तत्र यदा वयं स्मृतिलक्षणे संस्कारभिन्न इन्द्रियं सूचयति तत्रापि इति चेत् तज्जन्यत्व अभावं निवेश्य तद् निवेश्य इत्युक्ते संस्कारं जन्यत्वं संस्कारमेव तद् इति. तद् किं जनयति इत्युक्ते स्मृतिः.
परन्तु अत्र यदा वयं पूर्वं दृष्टवन्तः द्वे अपि लक्षण अत्र लक्षणवाक्ये रूपलक्षणे अपि तु स्पर्शलक्षणे अतिव्याप्तिदोषः निवार्यते मातृपदेन. अत्र कीदृश अतिव्याप्तिदोषः कीदृश अतिव्याप्तिदोषः भवति यदि मातृपदं नास्ति? कीदृशम् कीदृश अतिव्याप्तिदोषः प्रविशति?
यदा
संस्कारजन्यं ज्ञानम् इति वदामः चेत् किं भवति?
संस्कारजन्यं ज्ञानम् इति वा
उदाहरणं तु स्मरति वा सोऽयं देवदत्तः
सोऽयं देवदत्तः आम् आम्
किञ्चित् विवृणोतु भगिनि
तत्र सोऽयं देवदत्तः इति तत्र सः इति स्मृतिः भवति वा यदा वयं पूर्वं देवदत्तः दृष्टवन्तः चेत् तत्र सः इति स्मृतिः भवति देवदत्तः इति
केन स्मृतिः भवति
अनुभवेन
दृश्यते चेत्
वयं दृष्टवन्तः चक्षुषा दृष्टः प्रत्यक्षज्ञानेन स्मृतिः भवति
वयं
यदा
स्मृतिः कथं
संस्कार ओहो संस्कारेण अवक्षम्यतां
संस्कारेण संस्कारेण यः अहं पूर्वं तद्दिने दृष्टं मया इति अद्यतन अनुभवः नास्ति इदानीं तु नास्ति अनुभवः पूर्वम् अनुभवः आसीत् रूपप्रत्यक्षम् आसीत्
संस्कारेण
पुनः अग्रे
तदा यदा स्मृतिः संस्कारेण भवति तदा किं वदामः अभिज्ञानं भवति ये देवदत्तः इति अयं देवदत्तः इति
केवलं स्मृत्या भवति वा अभिज्ञानम् अभिज्ञानम् इत्युक्ते प्रत्यभिज्ञानम्
इत्युक्ते प्रति अभिज्ञानम् इत्युक्ते एव यदा वयं देवदत्तः दृष्टवन्तः किं वदामः ये अयं देवदत्तः इति
साक्षात् अस्ति खलु
मनसि आगच्छति किल
मनसि न अस्माकं
पुरतः आत्मनि आत्मनि
अस्माकं पुरतः देवदत्तः अस्ति अयं देवदत्तः इति प्रत्यक्ष अनुभवः अस्ति खलु प्रत्यक्षज्ञानं भवति अयं देवदत्तः चक्षुषा ग्राह्यते परन्तु पूर्वमपि दृष्टं देवदत्तः पूर्वमपि दृष्टः मया सः यः पूर्वं दृष्टः अयं देवदत्तः दिस् इस् द सेम् देवदत्तः इति खलु अस्मिन् वाक्ये सः इति संस्कारेण भवति स्मरणं भवति खलु स्मृतिः देवदत्तस्य स्मृतिः कथं भवति संस्कारेण भवति सः अयं देवदत्तः इति प्रत्यक्ष अनुभवः अस्ति प्रत्यक्षज्ञानम् अतः प्रति अभिज्ञाने स्मृतिः अपि तु प्रत्यक्षं भवति वा अनुभवः भवति द्वै ज्ञानद्वयं भवति तत्र प्रथमं तु सः इति स्मृत्या भवति संस्कारेण जायते स्मृतिः अयं देवदत्तः इति प्रत्यक्षज्ञानम् खलु
चक्षुषा दृष्ट्वा भवति
परन्तु संस्कारजन्यं ज्ञानम् इति वदनेन कीदृश अतिव्याप्तिः भवति
तत्र एव प्रत्याभिज्ञा इति अतिव्याप्तिः भवति
इत्युक्ते सो अयं देव संस्कारजन्यं ज्ञानम् इति वदनेन प्रति अभिज्ञायाम् अतिव्याप्तिः भवति कथम्
तत्र ज्ञानद्वयम् उत्पद्यते अपि अनुभवः अतः तत्र अतिव्याप्तिः भवति
अस्माकं कः इष्टः
स्मृतिः एव किल
इत्युक्ते संस्कारेण एव जन्या स्मृतिः अस्माकम् इष्टा खलु
इष्टा
न तु अन्यत् अतः मातृपदं आवश्यकं भवति.
आवश्यकं सामञ्जस्यम् इति किं भवति?
सामञ्जस्यम् इत्युक्ते सुष्ठुः उचितम् इति.
उचितं
स्पष्टं वा?
इदानीम्
अस्ति इति सम्यक् अस्ति.
आमां सम्यक् इति. अखिला भगिनी किञ्चित् सारांशरूपेण वदति वा?
किं भगिनी तत्र अन्तिमपरिच्छेदस्य
अन्तिमं वाक्यं किमर्थं तत्र मातृपदं तेन कीदृशी अतिव्याप्तिः निवार्यते इति?
हा इत्युक्ते अत्र स्मृतिलक्षणवाक्ये यथा वयं दृष्टवन्तः तत्र संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति अस्ति. तर्हि स्मृतिः इति तत्रापि यथा रूपस्य लक्षणवाक्ये त्रयमासीत् अत्रापि तद्वत् इत्युक्ते संस्कारेण जन्यं संस्कारमात्रजन्यम् इत्युक्ते संस्कारभिन्नं किमपि केनापि न जन्यं भवति. अपि च ज्ञानम् अस्ति स्मृतिः इति दलत्रयमस्ति. अत्र संस्कारभिन्नम् इन्द्रियं स्मृतिलक्षणे अपि संस्कारभिन्नम् इन्द्रियं विवक्षितं तज्जन्यत्व अभावं निवेश्य वक्ष्यमाणरीत्या प्रत्यपि ज्ञायाम् अतिव्याप्तिः निवार्यते. यथा वयं तत्र रूपस्य विषये दृष्टवन्तः तत्र चक्षुर्मात्रग्राह्यो गुणः रूपम् इति यदा आसीत् तत्र वस्तुतः चक्षुर्मात्र इति पदेन तत्र चक्षुर् इन्द्रिय भिन्न इन्द्रियम् इत्युक्ते त्वगिन्द्रियेण तत्र ग्राह्यं न भवति इति एव तत्र विवक्षितम् आसीत्. तद्वत् अत्रापि संस्कारभिन्न इन्द्रियेण ज्ञानं तस्य ग्राह्यं न भवति इत्युक्ते तस्य कारणं न भवति इति विवक्षितं. तत्र तादृशभिन्नं किम् इत्युक्ते तत्र प्रत्यपि ज्ञा इति भवति इत्युक्ते तत्र यदा रामप्रिया भगिनी उक्तवती तत्र सोऽयं देवदत्तः इति यदा वदामः तत्र संस्कारः यदा वयम् इदानीं पश्यामः तत्र प्रत्यक्षेण पश्यामः तत्र प्रत्यभिज्ञा अपि भवति संस्कारः अपि भवति. परन्तु संस्कारेण एव स्मृतिः जनयति जायते इति कृत्वा तत्र संस्कारः एव अस्माभिः विवक्षितं. तर्हि तादृश अतिव्याप्तिनिवारणाय तत्र मात्रपदस्य संयोजनं कृतम् इति तत्र पर्यवसितम्.
समीचीनं भगिनि. अस्तु प्रश्न अस्ति वा
भगिनि? मम प्रश्नद्वयमस्ति. एकं संस्कारभिन्न इन्द्रियम् इति दत्तमस्ति किल. संस्कारः तु गुणः न तु इन्द्रियं. कथं वा संस्कारभिन्नम् इन्द्रियम् इति?
हा समीचीनमेव. परन्तु अत्र संस्कारभिन्नम् इन्द्रियम् इत्यनेन संस्कारः इन्द्रियम् इति न अर्थः. संस्कारं भिन्नम् इन्द्रियं यत् इन्द्रियेण यत् ज्ञानं जायते तदेव अर्थः अस्ति. संस्कारं विहाय इन्द्रियेण यत् ज्ञानं जायते तद् मार्यते.
तद् विवक्षितमस्ति.
आम् आम्
अत्र स्मृतिर्लक्षणे संस्कारभिन्नं यत् अपि च यद् इन्द्रियं तद् विवक्षितम् अस्ति इति.
आम् 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 आम्
अस्तु. तत्तु एकं. द्वितीयं तु तत्र सोऽयं देवदत्तः इत्यस्मिन् स्थले सः देवदत्तः इति स्मृतिः किल.
आम्
अयं देवदत्तः इति चक्षुषा तत् प्रत्यक्षज्ञानं. सः देवदत्तः इति स्मृतिः. स्मृतिः तु संस्कारेण जायते इति कृत्वा संस्कारस्यापि प्रत्यभिज्ञा प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति इति परम्परया स्वीकार्यं वा?
कथं परम्परया
संस्कारेण स्मृतिः जायते, स्मृत्या एव प्रत्यभिज्ञा जायते किल, साक्षात् संस्कारेण न,
साक्षात् संस्कारेण न, न इत्युक्ते प्रत्यभिज्ञायां स्मृतेः भागः भवति. प्रत्यभिज्ञा चेत् अहं प्रथमं पश्यामि, चक्षुषा दृश्यते, परन्तु कथं ज्ञायते सः एव देवदत्तः इति, तत्र स्मृतेः भागः भवति खलु.
आम्, किन्तु स्मृतेः भागः एव अस्ति, न तु संस्कारः इति कृत्वा संस्कारस्य संस्कारे कथं वा अतिव्याप्तिः प्रत्यभिज्ञायाः.
प्रत्यभिज्ञायां संस्कारेण जातं ज्ञानम् इति
नास्ति, स्मृत्या एव प्रत्यभिज्ञा जायते. तत्र ज्ञानद्वयमस्ति प्रत्यभिज्ञायां, ज्ञानद्वयमस्ति, एकं तु स्मृतिः, द्वितीयं तु प्रत्यक्षज्ञानम् इति चेत् संस्कारे कथं वा अतिव्याप्तिः प्रतिज्ञायां. प्रायः संस्कारेण स्मृतिः जायते इति कृत्वा परम्परया संस्कारे अपि प्रत्यभिज्ञायां प्रत्यभिज्ञायाः अतिव्याप्तिः भवति इति स्वीकार्यम्. नो चेत् साक्षात् संस्कारे अतिव्याप्तिः नास्ति किल,
संस्कारे न अतिव्याप्तिः खलु, प्रत्यभिज्ञायाम् अतिव्याप्तिः इत्युक्ते
प्रत्यभिज्ञायाम् अतिव्याप्तिः, किन्तु केवलं तत्र लक्षणवाक्ये संस्कारजन्यं ज्ञानं स्मृतिः इति वदामश्चेत् कथं वा प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति इति मम प्रश्नः अस्ति. किमर्थं मात्रपदस्य आवश्यकं तत्र, संस्कारेण प्रत्यभिज्ञा न जायते, स्मृत्या एव जायते.
हा, स्मृत्या एव जायते, आम् समीचीनमेव. इत्युक्ते प्रत्यभिज्ञायां यथा भवता उक्तं स्मृतिः अपि तु अनुभवः अस्ति, परन्तु अस्माकं यत् इष्टम् अस्ति स्मृतिः एव. अतः प्रति अभिज्ञायाः दृष्टान्तं बहिष्करणार्थं मातृपदं
नास्ति, स्मृतिः एव इति किमर्थं वदति भगिनि? लक्ष्यं स्मृतिः.
महोदय, अत्र सत्यं लक्ष्यं स्मृतिः अस्ति, अत्र मम अवगमनम् एवम् इत्युक्ते संस्कारः नास्ति चेत् स्मृतिः नास्ति, स्मृतिः नास्ति चेत् प्रत्यभिज्ञा अपि नास्ति खलु. इत्युक्ते तत्र संस्कार इत्युक्ते प्रत्यभिज्ञायाः कृते संस्कारः अपि आवश्यकः, स्मृतिः अपि आवश्यकी, परन्तु स्मृतेः केवलं संस्कारः एव आवश्यकः इति कृत्वा संस्कारमात्र इत्युक्ते प्रत्यभिज्ञा अपि संस्कारजन्यः, स्मृतिः अपि आवश्यकी, परन्तु संस्कारः अपि इत्युक्ते मम इति प्रायः अग्रे यदा प्रत्यभिज्ञायाः विषये पठेम प्रायः इतोपि सम्यक् अवगमनं भवति इति चिन्तयामि. परन्तु तत्र प्रत्यभिज्ञायाः कृते तत्र संस्कार प्रथमं संस्कारः भवेत्, संस्कारेण स्मृतिः तत्र द्वयोः द्वयमपि अस्ति इति कृत्वा प्रत्यभिज्ञा. तर्हि द्वयोः कृतेपि संस्कारस्य आवश्यकं, परन्तु प्रत्यभिज्ञाय कृते केवलं संस्कारः इति न, स्मृतिः अपि, परन्तु स्मृतेः कृते केवलं संस्कारः एव. तदनन्तरमेव अत्र मातृपदम् उपयोजितं, तदर्थमेव तत्र प्रत्यभिज्ञायामपि अतिव्याप्तिः आपतति.
अहम् एवं पृच्छामि भगिनि, संस्कारजन्यं ज्ञानं स्मृतिः तत्र मात्रपदं त्यक्त्वा वयं लक्षणवाक्यं निर्माणं कुर्मश्चेत् कः दोषः भवति? संस्कारजन्यं ज्ञानं स्मृतिः
प्रत्यभिज्ञायां भवति खलु महोदय, यतोहि
संस्कारेण जायते किल
न संस्कार न एकक्षणं तत्र इदानीं तत्र प्रायः अत्र व्यापारः एव भवति इति चिन्तयामि अहं तु न जानामि तर्हि तदर्थमेव तत्र विपरीततया इत्युक्ते तत्र दोषपूर्ण विषयः वक्तुं न इच्छामि परन्तु एवं चिन्तयतु तत्र यदा घटः इति कार्यम् अस्ति चेत् तत्र दण्डः साक्षात् तस्य कार्यं न तत्र कारणं न भवति दण्डेन प्रथमं भ्रमि भवति भ्रमिजन्य इदानीं भ्रमिः अस्ति इति कृत्वा एव कपालस्य निर्माणं भवति खलु तर्हि तत्र किमर्थं दण्डः कपालस्य कारणम् इति वदामः यतोहि दण्डः नास्ति चेत् भ्रमिः एव न जायते इति कृत्वा तद्वत् अत्र संस्कारः नास्ति चेत् स्मृतिः न भवति स्मृतिः नास्ति चेत् तृतीयविज्ञा न भवति इति कृत्वा प्रत्यभिज्ञायाः कृते संस्कारः अपि प्रायः एकं कारणं तर्हि संस्कारः संस्कारे प्रत्यभिज्ञायाः जनकत्वमपि स्यात् तर्हि मात्र इति न उपयोगं कुर्मः चेत् तत्र प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति यतोहि संस्कारेण स्मृतिः अपि जायते प्रत्यभिज्ञा अपि जायते परन्तु केवलं स्मृतिः एव संस्कारेण मात्र जनयति इत्युक्ते संस्कारभिन्नम् अन्यत् किमपि नास्ति तस्य अन्यत् किमपि ज्ञानम् अथवा गुणः न आवश्यकः तस्य तस्य जननस्य कृते परन्तु प्रतिविज्ञाय कृते तु इतोपि अधिकः इत्युक्ते स्मृतिः अपि आवश्यकी भवति इति कृत्वा यदा मातृपदम् उपयोगं कुर्मः तदा तत्र अतिव्याप्ति दोषः गच्छति इति तथा मम अवगमनम्
इत्युक्ते
इति अतः एव मया उक्तं संस्कारस्य प्रतिविज्ञायाः अतिव्याप्तिः परम्परया आगतं न तु साक्षात् इति साक्षात् स्मृतेः एव आगतं किन्तु परम्परया
इति तत्र मम स्पष्टता नास्ति महोदय तर्हि किमपि न वक्तुं शक्नोमि इत्युक्ते दण्डः परम्परया अस्ति वा घटस्य कारणम् इति न खलु अथवा तत्र इन्द्रियसन्निकर्षः तदनन्तरं ज्ञानं खलु तर्हि इन्द्रियं परम्परया इन्द्रियस्य कारणत्वं भवति वा
इत्युक्ते व्यापारस्थाने परम्परासम्बन्धः इति भवान् वदति खलु
साक्षात् नास्ति इति मम
विवक्षा तथा वक्तुं शक्नुमः वा इति यत्र व्यापारः इति आगच्छति तत्र परम्परा इति वक्तुं शक्नुमः वा इति न जानामि वस्तुतः
महोदय महोदयमपि पृच्छामि महोदय इदानीं समयः अभवत् न भवतः प्रश्नः अवगतः मया किमर्थं केवलं संस्कारजन्यं ज्ञानं स्मृतिः इति वदनेन कथम् अतिव्याप्तिः आगच्छति इति भवतः प्रश्नः खलु
तत्र त्वदिन्द्रियजन्यप्रत्यक्षविषयत्वाभावः
एकनिमिषं लक्ष्मी भगिनी वदतु
अग्रिमपृष्ठे प्रतिज्ञास्वरूपं प्रति इतोपि अधिकचर्चा अस्ति प्रायः
चर्चा भवति निरूपयिष्यते इति मन्ये महोदय
अस्तु भगिनि
परन्तु अहं पृच्छामि महोदयं पृच्छामि
अस्तु
तर्हि धन्यवादः
धन्यवादः